प्रीत्या दैत्यस्तव तनुमः प्रेक्षणात् सर्वथापि त्वामाराध्यन् अजितरचयन् अञ्जलिं सञ्जगद मत्त किम् ते समभिलषितौ विप्रसूनो वद त्वौ व्यक्तौ भक्तौ भवनमवरि क्वापि सर्वौ प्रदास्ये कामक्षीण बलिगिरमुपाकर्ण्यकारुण्यपूर्णोऽप्यस्योत्सेकम् समहितुमना दैत्यवंशौ प्रशंस भूमिम् पादत्रय परिमिता प्रार्थयामासित त्वः सर्वौ देहीतु निगदिते कस्य हास्यम् न वा स्यात् विश्वेशम् त्रिपदमिह किम् याचसे बालिशस्त्वम् सर्वाम् भूमिम् वृणुकिममुनेत्यालपत्वाम् सदृप्यम् यस्माद्दर्पः त्रिपद परिपूर्त्य क्षमः क्षेपवाद बन्धौ चासावगमत् अथ दर्होऽपि गाढोपशान्त्यै पादत्रय्या यदिदमुदितो विष्टपैर्णापि तुष्येद्युक्तेऽस्मिन् भरत भवते दातु कामे ततो यो दैत्याचार्यस्तव खलु परीक्षापि न प्रेरणातौ मामादेयौ हरिदयमिति व्यक्तमेवाबभाषे याचत्येवम् यदि स भगवान् पूर्णकामोऽस्मि सोऽहम् दास्याम्येव स्थिरमिति वदन् काव्यशब्दोऽपि दैत्यः विन्द्यावल्या निजदयितया दत्तपाद्याय तुभ्यौ चित्रौ चित्रौ सकलमविश प्रार्पयत्तो य पूर्वौ निःसन्देहम् दिति कुलपतौ त्वय्यशेषार्पणौ तद्व्यातन् वाने मुमुचु ऋषयः सामरः पुष्पवर्षौ दिव्यौ रूपम् तव च तदिदौ पश्यताम् विश्वबाजामुच्चैरुच्चैरमृतदवधीकृत्य विश्वाण्डभाण्डौ त्वत्पादाग्रौ निजपदगतौ पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसि च पुनाद्यज्जलौ विश्वलोकान् हर्षोत्कर्षात्सु बहुन नृते केचदैरुत्सवेऽस्मिन् भेरीम् निघ्नन् भुवनमचरज्जाम् भवान् भक्तिशाली तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धः देवोपेते भवदनुचरैः सङ्गता भङ्गमापन् कालात्मा यौवसति पुरतो यद्वशात् प्राजिता स्मः किं वो युद्धैरिति बलिगिरा ते तपातालमापुः पाशैर्बद्धौ पतगपतिना दैत्यमुच्चैरव हरिः कार्तीयीकौ दिश मम पदौ किन्न विश्वेश्वरोऽसि पादम् मूर्नि प्रणय भगवन्नित्यकम्पौ वदन्तौ प्रह्लादस्तौ स्वयमुपगतो मानयन्नस्तवीत्वाम् दर्पोश्चित्यै लिखितमखिलम् दैत्यसिद्धोऽसि पुण्यैः लोकस्थेऽस्तु स्त्रिदिव विजयि वासवत्त्वम् च पश्चात् मत्सायुज्यौ भज च पुनरित्यन्न गृह्णा बलिम् तौ विप्रैः सन्तानि तमकबर पाहि वातालयेश